इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेशचन्द शर्मा। इदानीं वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजस्थानप्रदेशे वर्तमान शासनस्य वर्षैकपूर्तिमालक्ष्य राजधान्यां जयपुरनगरे समायोक्ष्यमाणे भव्यसमारोहे भागं भजिष्यति। समारोहेऽस्मिन् श्रीमोदी 300 कोटितोप्यधिकपरिमितानां नैकासां परियोजनानां उद्घाटनं शिलान्यासञ्चापि विधास्यति। एतासु परियोजनासु ऊर्जा, राजमार्ग, रेल, जलसम्बद्धाः नैकाः परियोजनाः सम्मिलिताः सन्ति। एतस्मिन्नवसरे प्रधानमन्त्री श्रीनरेन्द्रमोदी जनसभामेकामपि सम्बोधयिष्यति। एतस्मिन् समारोहे राजस्थानप्रदेशस्य मुख्यमन्त्री भजनलालशर्मा, मध्यप्रदेशस्य मुख्यमन्त्री मोहनलालयादवः, नैके केन्द्रीयमन्त्रिणश्चापि समुपस्थिताः भविष्यन्ति। भारतचीनदेशयोः मध्ये सीमप्रकरणमालक्ष्य भारतस्य विशेषः प्रतिनिधिः राष्ट्रियसुरक्षासम्मर्दश्च अजीतढोवालः श्वः बीजिंगनगरे स्वीय चीनदेशीयसमकक्षेण चीनदेशस्य विदेशमन्त्रिणा वांग यी इत्यमुना च साकं विशेषप्रतिनिधीनां 23तमे उपवेशने भागं ग्रहीष्यति। विदेशमन्त्रालयेन संसूचितं यत् यथा ऑक्टोबरमासे कजानगरे उभाभ्यां नेतृभ्यां सहमतिः प्रकटिता आसीत् यत् उभौ विशेषप्रतिनिधिवर्यौ सीमक्षेत्रेषु शान्तेः सौहार्दस्य च प्रबन्धनविषये चर्चां करिष्यतः, सीमप्रकरणानां च निष्पक्षोचितं परस्पर स्वीकार्यं च समाधानम् अन्विष्यतः। भारत श्रीलंका देशाभ्याम् गतदिने आतंकवादं विरुध्य सहभागितापत्रेषु हस्ताक्षरं कृतम्। अपि च द्विगुण कराधान राजकोषीय चौर्यकार्ययोः शमन प्रक्रियाणाम् उपायेषु चर्चा कृता। उभौ देशौ श्रीलंका देशस्य प्राशासनिक सेवकानां प्रशिक्षण क्षमता निर्माणाय एकस्य सहभागिता ज्ञापन पत्रस्य अपि आदान प्रदानं कृतवन्तौ। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्रीलंकादेशीयः राष्ट्रपतिः अनुरा कुमार दिसानायके इत्येषौ च नवदिल्ल्यां सञ्जात द्विपक्षीय वार्तानन्तरं पारस्परिक कल्याणान् प्रसंगेषु चर्चाः कृतवन्तौ। प्रधानमन्त्री नरेन्द्रमोदी एतस्मिन् अवसरे प्रोक्तवान् यत् यात्रेयम् उभयोः देशयोः सम्बन्धेषु नवीनाम् ऊर्जां गतिं च जनयति इति। फ्रांस देशस्य द्वीपक्षेत्रे मायोट इत्यत्र चीडो इति चक्रवात कारणेन शताधिक जनानां मरणस्य आशंका वर्तते। अत्यधिक प्रवाह भूतेन चक्रवातेन एतेन सम्पूर्णं क्षेत्रं शतविक्षतं जातम्। हिंद महासागरे मेडागास्कर मोजाम्बिक तटयोः मध्ये स्थितः एषः द्वीपः चक्रवात कारणेन पूर्णतया दुष्प्रभावितः। फ्रांस देशस्य राष्ट्रपतिः इमैनुअल मैक्रो इत्यसौ प्रोक्तवान् यत् असौ राष्ट्रिय शोकस्य घोषणां विधास्यति। वायु प्रदूषण कारणेन तीव्र वृद्धि कारणेन च राष्ट्रिय राजधानी क्षेत्रे जीआरपी इत्येतस्याः योजनायाः चतुर्थं चरणं तत्काल प्रभावेण प्रवर्तितम्। गतरात्रौ 10 वादने वायु गुणवत्ता सूचकांकः 400+ समंकितः। आयोगेन आपत आधारे समाहूते उपवेशने एकस्मिन् स्थितेः समीक्षानन्तरं निर्णयः एषः गृहीतः। अन्ते च क्रीडा वार्तासु भारत ऑस्ट्रेलिया देशयोः मध्ये प्रचाल्यमानायां बॉर्डर गावस्कर क्रिकेट निकष स्पर्धा मालिकायां तृतीयायाः स्पर्धायाः तृतीय दिवस क्रीडान्तं यावत् चतुर्णां क्रीडकानां हानौ भारतीय दलेन 150 धावनाङ्काः समर्जिताः। स्पर्धेयम् ऑस्ट्रेलिया देशस्य ब्रिस्बेन नगरस्य गाबा क्रीडाङ्गणे क्रीड्यते इति वार्ताः।